सर्वेषां ध्येयमन्त्रेण आरम्भं कुर्मः. अस्तु, वदतु भगिनि.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्षणनुकुर्याम विश्वं शान्ति समन्वितम्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
बहु धन्यवादः भगिनि. धन्यवादः. अस्तु, अद्यतनविषयः यथा तथा, यत्र तत्र, यः सः विषये अस्ति. पूर्वस्मिन् वर्गे वयम् आरम्भं कृतवन्तः. यत्र तत्र इति स्थानं सूचयति, यथा तथा गुणं सूचयति, यः सः सर्वं सूचयति. इत्युक्ते यत्र तत्र इति अव्ययमेव. कुत्र इति प्रश्नस्य उत्तरं यत्र तत्र उपयुज्य वक्तुं शक्नुमः. कुत्र बालकाः सन्ति, यत्र क्रीडा अस्ति तत्र बालकाः सन्ति इति. यथा तथा कथम् इति प्रश्नस्य अपि उत्तरम् आगच्छति. यथा तथा उपयुज्य उत्तरं वक्तुं शक्नुमः. सा कथं गायति? यथा तस्याः अध्यापिका पाठितवती तथा एव सा गायति इति. यथा तथा. परन्तु यः सः साधारणतया यत् तत् एव मूलरूपम् अस्ति, यद् तद् इति. अतः लिङ्गभेदः अस्ति, विभक्तिभेदः अस्ति, वचनभेदः अपि अस्ति. अतः विभक्तिसु, सप्तसु विभक्तिसु अपि अस्ति अत्र. अपि च यः सः इति अस्ति चेत् प्रथम यः अस्ति चेत् द्वितीयं सः आगच्छति. परन्तु भिन्नविभक्ति अपि वक्तुं शक्नुमः, भिन्नविभक्तिम् उपयुज्य अपि वक्तुं शक्नुमः. उदाहरणार्थं यः आगच्छति तस्य नाम, यस्य नाम रामः तस्मै ददातु इति भिन्नरूपमपि उपयुज्य वक्तुं शक्नुमः. अस्तु, अभ्यासं प्रति गच्छामः. एतत् कृतवन्तः वा वयम्? आरम्भं कृतवन्तः इति अहं
चिन्तयामि.
अस्तु अस्तु. यत् तत् शब्दयोः उचितेन विभक्तिरूपेण रिक्तस्थानं पूरयत. उदाहरणं, तत्र रिक्तं गच्छति, रिक्तं मम सहोदरः. तत् सो अत्र कथं जानीमः यस्य वा येन वा यस्मात् वा यस्मिन् वा किं तत्र लेखनीयम् इति कथं जानीमः? वयं प्रथमं वाक्यम् अवगच्छामः, अनन्तरमेव वक्तुं शक्नुमः वयं मम सहोदरः. सहोदरः इति पुल्लिङ्गपदं, प्रथमाविभक्तिरूपम्. अतः सः, अनन्तरं यः आगच्छति सः मम सहोदरः इति ऊहं कर्तुं शक्नुमः. अस्तु, गोपिका भगिनी आरम्भं करोतु कृपया.
आं भगिनि. तत्र तत्र सै
सैकल् यानेन यः गच्छति सः मम पिता।
हा, पिता इति पुल्लिङ्गपदम्, अतः सः इति आगच्छति, अतः यः गच्छति सः मम पिता। सम्यक्। सागरि भगिनि,
या रक्तशाटिकां धृतवती सा मम भगिनी।
हा सम्यक्, या सा, अत्र भगिनी स्त्रीलिङ्गपदम्, अतः सा, अतः या सा। सम्यक्। सन्ध्या भगिनि,
यस्मिन् कोकिलः निवसति सः एव आम्रवृक्षः।
हा सम्यक्, सः आम्रवृक्षः, कोकिलः निवसति, कुत्र निवसति, कुत्र इति सप्तमी विभक्तिरूपम्, अतः यस्मिन्, यस्मिन् वृक्षे कोकिलः निवसति सः आम्रवृक्षः। बहु ध्वनिः अस्ति, कृपया म्यूट् मध्ये गच्छन्तु। अस्तु, सविता भगिनि।
आं भगिनि, चित्रे एषः अभिनीतवान्, चित्रेण प्रशस्ति प्राप्ता।
अत्र चित्रे इति पदस्य विभक्ति का, तत् पश्यतु, अनन्तरं चित्रेण इति विभक्ति का, तदपि पश्यतु, तद् तदनुसृत्य यः संयोजयत् अथवा यत् तत्। चित्रे इति विभक्ति का, कुत्र, चित्रे, प्रथमा नास्ति, द्वितीया
नास्ति,
चित्रेण द्वितीया विभक्ति,
चित्राय चित्राभ्यां,
चित्रस्य
चित्रयोः
चित्रे चित्रे सप्तमी। सप्तमी अस्ति चेत् कथं भवति? यस्मिन् इति वदति खलु, यस्मिन्,
यस्मिन्
यस्मिन् चित्रे
यः सप्तमी विभक्तिः भवति खलु, चिन्तयतु भगिनि।
आमामाम्,
यस्मिन् चित्रे एषः अभिनीतवान् तस्मिन् चित्रेण प्रशस्ति प्राप्ता।
सो अत्र तस्मिन् न आगच्छति, बिकास् इफ् तस्मिन् अस्ति चेत् सप्तमी विभक्तिरूपं खलु। सो अत्र तृतीया विभक्तिरूपं,
चित्रेण चित्राभ्यां, तेन चित्रेण प्रशस्ति प्राप्ता।
सम्यक् भगिनि, तेन चित्रेण प्रशस्ति
प्रशस्ति प्राप्ता
प्राप्ता सम्यक्। अस्तु, ज्योति भगिनि।
आं भगिनि, भवान् वचनम् उक्तवान् सत्यम् एव जातं, भवान् तेन नो
सो वचनम् इति नपुंसकलिङ्गपदं,
आमां, भवान् नपुंसकलिङ्गपदं वचनं, वचनं वचन वचनयोः,
वचनं वचने वचनानि,
वचनं वचने वचनानि
वचनानि, इदानीं प्रथमा विभक्ति
प्रथम एकवचनं, भवान् 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 वचनम् उक्तवान् सत्यम् एव जातं
जातं। सो अत्र
भवान् केन,
न न न सो अत्र प्रथमविभक्तिरूपम् पुल्लिङ्गे यः इति अस्ति, स्त्रीलिङ्गे या इति अस्ति, नपुंसकलिङ्गे कथम् अस्ति? नपुंसकलिङ्गम् अस्ति चेत् उदाहरणार्थं यः अस्ति सः मम सहोदरः, या अस्ति सा मम सहोदरी. एवमेव पुस्तकम् अस्ति चेत् कथं वदामः?
पुस्तकं पुस्तके पुस्तकानि.
सम्यक्. परन्तु सपोजिङ्ग् ऐ वाण्ट् टु से विच् बुक् यु आर् रीडिङ्ग्, दट् बुक्
किं पुस्तकं.
सो फार् किम् उत्तमं, किं वाट् बुक् इस् किम्, but which if I want to say whichever book you are reading, like udaharanartham yaha saha asti kalo atah ya sa iti asti evam evameva napumsakalinge
yasmin
so atra asti pashyatu
yatra gachami tatra vasah
so atra etat
यः सः
न न ऐ एम् पॉइंटिंग कलो कन यू सी
ओके यत् यत् तत्
यत् तत्
आम् भगिनि
सो अस्तु
ऐ एम् नॉट भवान् यत् वचनम् उक्तवान्
सम्यक्
सत्यम् इति सत्यम् एव जातम्
सम्यक् भगिनि सो अत्र नपुंसकलिङ्गम् अस्ति अतः यत् तत् अस्तु धन्यवादः. केतकी भगिनि,
भगिनि वन् क्वश्चन्, दिस् वचनम् इस् प्रथम विभक्ति इस् इट् आर् द्वितीया?
इट् कुड् बि द्वितीया तु,
बट् इन् दिस् सेण्टेन्स् वाट् इस् इट्?
इट् इस् द्वितीया.
धन्यवादः भगिनि. सो दिस् सत्यम् आल्सो विल् बि द्वितीया, रैट्?
नो, दट् इस् प्रथम.
ओके
भगिनि,
सो द वचनम् इस् द्वितीया विभक्ति
अण्ड् सत्यम् इस् प्रथमा विभक्ति, परन्तु नपुंसकलिङ्गे द्वौ अपि समानमेव.
अस्तु. सो इफ् यु वर् टु स्प्लिट् द सेण्टेन्स् because that's also a kind of object only, you know, what you said, that is also I mean that's the truth.
So atra so atra bhavan yet bhavan vachanam uktavan, so atra vachanam dvitiya vibhakti, bhavan prathama vibhakti. द्वितीयवाक्ये सत्यमेव जातं. किं जातं? सत्यं जातम्.
सो नार्मली टु आन्सर् द क्वश्चन् किं विल् बि अ द्वितीया विभक्ति, रैट्? वि आस्क् द क्वश्चन् किं, रैट्?
या, बट् यु आस्क् इट् अलाङ्ग् वित् द प्रथमा विभक्ति प्रश्नः. I see what you're saying, Bhagini. So, so that Satyam, it can be Dvitiya Vibhakti also. Tat, tat Kim Jatam, Tat Satyam Jatam.
It's confusing because it's Napumsakalingam and yes, the forms are the same. That is why.
Yeah, so it could be Dvitiya Vibhakti also. Tat Jatam, Tat तत् किं जातं, तत् सत्यं जातम्.
बिकास् इट्स् पार्ट् आफ् द फस्ट् सेण्टेन्स्. बिकास् भवान् कर्तृप्रदम् अस्ति, दट् इस् वै इट्स् पार्ट् आफ् द सेम् सेण्टेन्स्. दट्स् वै ऐ गाट् कन्फ्यूस्ड् अण्ड् आस्क्ड् यू द क्वश्चन्.
आम् आं भगिनि, सत्यं. नमस्कारः भगिनि, नमस्कारः महोदय, स्वागतम्. अस्तु, केतकी भगिनि.
आं भगिनि,
न न सवि आम् आं केतकी एव
भवान् धनं दत्तवान् न विश्वासः दिस् इस् अ क्वालिटि यथा भगवान् भवान्
न न न न न सर्वत्र यः सः एव
ओ यः यः भवान् धनं दत्तवान् तत् यत् भवान् तत् न विश्वासः
न अत्र दत्तवान् इति अस्ति चेत् साधारणतया अत्र विभक्ति का
दत्तवान् उक्तवान्
दानक्रिया अस्ति चेत् कथं चतुर्थी अस्तु यः इति पदस्य चतुर्थी कथं भवति
यः भगिनी न स्मरामि
अस्तु यः यं येन यस्मै यस्मात् यस्य यस्मिन्
येन यस्मात् यस्मिन्
न न प्रथमा विभक्ति यः
यः
द्वितीया विभक्ति यम्
अम्
तृतीया विभक्ति येन
येन चतुर्थी विभक्ति ये
यस्मै यस्मै
यस्मै ओके यस्मै भवान् धनं दत्तवान् रैट्
आम् सो अत्र न विश्वासार्हः अत्र विभक्ति का अत्र विश्वासः
प्रथम
विश्वासार्हः पूर्वपदं स्वीकृत्य विभक्ति विश्वासार्हः प्रथमा विभक्तिरूपम् अतः अत्र किं पदम्
यस्मिन् भवान् धनं दत्तवान्
सः न विश्वासः
यः न विश्वासः
न यः न सः यस्मै भवान् धनं दत्तवान् सः न विश्वासार्हः इत्युक्ते अर्थः कः
सो सः इस् भवान् सः इस् सः फर् भवान्
न सः फर् द ओके सो द मीनिङ्ग् आफ् द सेण्टेन्स् इस् हू एवर् यु गेव् द मनी he is not trustworthy
okay so they are money is dhanam is a right
no so here
they are talking about the money
they are talking about the person
so
to whomever you gave the money that person is not trustworthy How do we know it is pullinga and not strilinga?
Because of saha.
How do we know it is saha?
Because it's bhavan is pullinga.
Not because of bhavan, because of vishwasarhaha. Vishwasarhaha is pullinga padam, right? Therefore, here it should be yasmai instead of yasyai.
So, यस्मीय भवान् धनं दत्तवान् यस्मै न विश्वासः
न यस्मै भवान् धनं दत्तवान् सः न विश्वासार्हः दिस् इस् अ डिफिकल्ट् सेण्टेन्स् बट् वन्स् यु अण्डर्स्टाण्ड् यु विल् गेट् अदर्वैस् इट् इस् नाट् पासिबल् सो if you don't understand the first part look at the second part the second part says na vishwasarha so that is a pullinga padam prathama vibhakti
huh
for what should go over here
pullinga shabda goes
saha na vishwasarha kaha na vishwasarha
सः
यस्मै भवान् दत्तवान् धनं दत्तवान् सः न विश्वासार्हः.
Again, I think still we have to do more.
Yeah, so we have to understand the sentence.
Yes, Bhagini.
Bhagini?
How about the others? Vadatu, Bhagini. Prashna.
I have two questions, Bhagini. I understood Saha na Vishwasarha, because Vishwasarha is Purling, therefore we use Saha. But you also said it is not because of Bhavan. It can also be because of Bhavan, I thought, Bhagini. Is that incorrect? Because the person to whom you gave the money, so the person is Bhavan. Otherwise, we'd have said Bhavati.
No. Supposing I gave it to a female, okay?
Yeah.
Bhavan, yasyai dhanam dattavan, sa na vishwasarha.
Okay. So Bhavan is referring to you, the person you gave money to. Is it? It is not the not person.
Bhagini, Bhavan shabda is for the some other person. Who gave money?
Bhavan is for the person who gave the money, correct?
How do you figure that out, Bhagini? Whether Bhavan refers to the person who is giving the money or who happened to receive the money?
Okay, so that's a very good question. So in these kind of exercises, so the same lingam is there on both. The vibhakti, it could be different.
And
the number is different, like Prathama Vibhakti can be in one and then Panchami Vibhakti in another, but the lingam is the same. So, Na Vishwasarhaha is the key. Here it is Pullingapada. Therefore, this also has to be Pullingapada.
That bit I got, Bhagini. On that, there is no confusion at all. Yes, Mai, because it is Vishwasarhaha, and that determines the fact that the person whom it was given is the Purling,
Okay.
But where I got confused was in the formation of this sentence, when we say, is it Yasmai Bhavan, Dhanam Dattavan, or is it Yasmai, Bhavan, Dhanam Dattavan?
I don't think it would matter, because to whomever you gave money, that's it. Supposing I change it to Bhavati Dhanam Dattavati, then what happens?
Then the giver also is Strilinga then. Bhagini, where I'm getting confused is whether the Bhavan is an association with the giver or the receiver.
The giver.
Okay.
Bhavan Dattavan. Supposing I say Yasmai Aham Dhanam Dattavati, it will not affect here.
Right.
Yasmai Aham Dhanam Dattavati. Saha na Vishwasarha.
Got it. The second question I had was, what is the Strilinga of Vishwasarha?
Vishwasarha.
Oh, okay. So then it would have been
Yasyai.
Yasyai
Dhanam Dattavan.
Sa Vishwasarha.
Vishwasarha.
Got it, Bhagini. Dhanyavadah.
This was a very good sentence. Amba Astiva, Swagatam Amba Astiva.
Graham Shastamukya Margaha Asti.
Margaha
Asti. Mama Graham.
Na pratamam vakyam patamaha
graham shashta mukhya marge asti pitakyah
divangatah
pitakyah
मम न आगच्छति सो इट् शुड् बि संथिङ्ग् वित् य सो अत्र अर्थम् अहं वदामि somebody's dad died तस्य पिता अथवा तस्याः पिता न जानीमः तस्य पिता अथवा तस्याः पिता ह्यः दिवङ्गतः ओके सो अत्र whosever house
यस्य गृहं
यस्य गृहं सम्यक्
यस्य गृहं
वदतु
इदानीं यस्य गृहं षष्ठमुख्यमार्गे अस्ति तस्याः पिता ह्यः दिवङ्गतः
दिवङ्गतः सो अत्र सो अत्र वयं यस्य इति लिखामः चेत् तस्य पिता यस्याः इति लिखामः चेत् तस्याः पिता
तस्याः पिता ह्यः दिवङ्गतः
तस्याः पिता दिवङ्गतः इति लिखामः चेत् अत्र किं भवति
यस्याः गृहं
यस्याः गृहं सम्यक् सम्यक् अस्तु शारदा भगिनी धन्यवादः
भगिनि एकः प्रश्नः
वदतु भगिनि
यः सः पदद्वयं समानविभक्त्यां भवितुं
निश्चयेन निश्चयेन
भवति अपि च न भवति
उदाहरणं सः नाम सम्यक् एव परन्तु इदानीम् अस्तु सो अत्र अत्र अस्ति खलु प्रथम यः आगच्छति सः या गच्छति सा समानविभक्ति अपि अस्ति
अस्तु सो इट् इस् नाट् मेण्डेटरि टु बी इन् द सेम् विभक्ति रैट्
नो नो नो
ओके
अस्तु शारदा भगिनि अग्रे
येन सह भवान् आगतवान् तस्मै मित्राय पानीयं दत्तं किम्
सम्यक् भगिनी कथं जानाति
सः इत्युक्ते ये तृतीया विभक्ति
एव सम्यक् येन सम्यक् परन्तु
भवान् पुल्लिङ्गम् इत्युक्ते येन मित्रं मित्राय दत्तम् इस् डिनोटिङ्ग् चतुर्थी भगिनी
चतुर्थी सम्यक्
तु तस्मै मित्राय दत्तं किं पानीयं दत्तं
पानीयं दत्तं किम् अस्तु सो अत्र किमर्थं स्त्रीलिङ्गं न भवति
कुत्र भगिनी द सेकेण्ड् सेण्टेन्स्
इन् द फस्ट् वन्
ह्योर् मित्रं स्त्रीलिङ्गं भगिनी सो दे टाकिङ्ग् अबौट् हिम् इन् द फस्ट् सेण्टेन्स् द फ्रेण्ड् हू केम् वित् यू आगतवान् डिनोट्स् पुल्लिङ्गं भगिनि
आगतवान् इट् डिनोट्स् इट् गोस् वित् भवान् खलु
हा सो ऐ थिङ्क् द सेकेण्ड् सेण्टेन्स् मित्रं मित्रः डिनोट्स् पुल्लिङ्गं सो ऐ टुक् इट् एस् येन सह द फ्रेण्ड् हू केम् वित् यू सो मित्राय मित्राय चतुर्थी इन् पुल्लिङ्गम्
अस्तु सो एकमेव भगिनी मित्रम् इति नित्य नपुंसकलिङ्गम् इट् इस् आल्वेस् नपुंसकलिङ्गं मित्रम्
ओके
ओके सो मित्रं सो देर् फोर् इट्स् लैक् येन तस्मै नाट् नाट् बिकास् आफ् भवान्
इट् वास् नाट् बिकास् आफ् भवान् बट् देन् ऐ थाट् It's because of Mitram. I thought it was Mitram. Yes.
Because of Mitram. Okay. Sarve avagachanti va? How she figured it out?
Ambagini.
Ambagini. This one I got the one. Because of Saha. Saha, she said the fourth. Chaturthi.
Tritiya.
Tritiya vibhakti. And Tasmai, because of the Mitraya, it's the fourth Chaturthi, right?
Mitraya is also one clue. Dattam is also another clue. For?
Dattam.
Chaturthi. Samya. Krishna Hava, Bhagini, Vadato.
You mentioned Mitram is, it is nothing Sakalinga, but can it be used in conjunction with either male or a female, which means if it's a girl who's a friend,
it can be used, but mostly it is used with the, for a male. Saha mama mitram, like that. Saha. Okay. But Saha mama mitram is also okay. But in general, they use Saha mama mitram, Saha mama saki, like that.
Dhanyavad.
Uma Krishna Bhagini Abhavat, Agre and Parameshwar Mahodaya.
Bhagini, my turn is not over.
Astu Bhagini, Uma Krishna Bhagini Vadatu. Samyata.
Saha Yesha Gatavati Malikaya Mata Mama Saki. Will this be Yena Saha?
Ekanimsham. So Atra Balika Yaha Mata. So Atra Lingam Kim?
Shashti.
Shashti. Lingam Kim?
Strilinga.
Samyak. Strilinga Shashti. Eka Vachanam. Katam Bhavati?
Ena Saha?
Pratamam, let's figure this out, Bhagini. So will it be like tasya balikayah or will it be tasyah balikayah? Tadeva prashna.
Balikayah.
Kim Bhagini?
Tasyah balikayah.
Tasyah balikayah. So atra strilingam asti. So atra yena saha agachativa strilinge katam bhavati?
Strilinge will be this will be tritiya, is it? Tritiya, no?
Saha asti chet tritiya.
Yaya
saha gatavati tasyaha balika yaha mata mama saki.
So with whom she is going, that the mother
mother is friend. My friend. Samya. Mama Saki.
So Yaya, no?
Yaya. So you got it correct. Yena, but it should be Yaya because of Balikayaha.
Because of the Strilinga Padam.
Because of Strilinga, it is Yaya instead of Yena.
Dhanyavad.
Astu. Agre, Parameshwar Mahodaya.
Yeah, which one is that?
Lalita. Dashama Vakyam.
Okay. One second. Yasmai Lalita Patram Likhitavati. Yasmai Mithu Likhitavati. Sa अथ अत्र आगता
सा अद्य अत्र आगता आगता सो अत्र किमर्थं यस् मै आगता इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा महोदय
आगता स्त्रीलिङ्गं
स्त्रीलिङ्ग सो अतः यस् मै आगच्छति वा अन्य किमपि आगच्छति वा
यस्मा
न यस्मै इति पुल्लिङ्गपदं स्त्रीलिङ्गे कथं भवति
हलो
सो अत्र अहम् अहं चिन्तयामि यस्यै खलु स्त्रीलिङ्गे यस्यै भवति यस्यै ललिता पत्रं लिखितवती
सः
सा अद्य अत्र
आगता
यस्यै अथवा अत्र या अपि अस्ति वा
ललिता इस् नेम् और् आगच्छति भगिनि नेम् खलु
नेम् एव
अतः यस्यै यस्यै
यस्यै ललिता पत्रं लिखितवती अथवा या अपि सम्यक् वा अत्र या
भगिनी केन् इट् बि द्वितीया यां टु द पर्सन् टु हूम् शी रोट्
तदपि सत्यमेव यां ललिता पत्रं लिखितवती सा अद्य अत्र आगता
लिखितवती हेव् टु द्वितीया इट्स् इट् अ सकर्मक द्विकर्मक दातु भगिनि
आम्
भगिनि या आगच्छति चेत् तस्याः बालिकायाः अब्जेक्टिव् विशेषणं भवति खलु
न न न लैक् या गोपिका अत्र अस्ति
ओ
तथा अत्र या ललिता पत्रं लिखितवती सा अद्य अत्र आगता
बट् या देन् इट् बिकम्स् टु सब्जेक्ट्स् नो भगिनि
या इट्स् ओके
The one whom Lalita wrote a letter to or for whom...
The one who wrote the letter. Ya Lalita Patram Likitavati, the girl Lalita.
She... Wrote a letter to somebody.
Somebody else.
So they're two different people, no? Then how can it be?
No, it's the same person. Like, you know... like if there are two people named Lalita okay. I'm distinguishing her by saying she who wrote the letter ya lalita patram likitavati anya lalita patram na likitavati
okay magini
ya lalita patram likitavati sa adya atra agata यां ललितापत्रं लिखितवती दट् पर्सन् हू एवर् दट् पर्सन् इस् सो अहं केवलं वदामि सीता इति यां सीतां ललितापत्रं लिखितवती सा सीता अद्य अत्र आगता अथवा यस्यै ललितापत्रं लिखितवती यस्यै सीतायै ललितापत्रं लिखितवती सा अद्य अत्र आगता सा इति परिवर्तनं न भवति सा एव परन्तु अत्र अत्र या यां यस्यै अहं चिन्तयामि लिखितवती इति द्विकर्मकपदं नास्ति वा अस्ति वा इति सम्यक् न जानामि. एकवारं पश्यामः वा अष्टाध्यायी. Can you see my screen? अहं चिन्तयामि द्विकर्मकपदं नास्ति इति. सकर्मक एव अस्ति परन्तु द्विकर्मक नास्ति इति चिन्तयामि. अस्तु द्विकर्मक नास्ति सो अत्र यस्मै एव सम्यक्. यम् याम् इति न सम्यक् अतः या ललितापत्रं लिखितवती सा अत्र आगता अथवा यस्यै ललितापत्रं लिखितवती सा अत्र आगता एव सम्यक्. अस्तु अन्य कोऽपि अस्ति वा अत्र न.
सोरि भगिनि, ऐ डिडन्ट् अण्डर्स्टाण्ड् वै याम् इस् नाट् allowed because it is dvikarma, it's not dvikarma.
So if I write to you, then they are saying that I wrote the letter, that is aham, like udaharanatam, for the sake of iti arthe eva bhavati. So what did you write? So atra ललिता पत्र ललिता लिखति ललिता लिखितवती ललिता किं लिखितवती ललिता पत्रं लिखितवती देन् वि हाव् टु आस्क् ए डिफ्रेण्ट् क्वश्चन् टु गेट् टु होम् ललिता कां लिखितवती दट् ऐ डोण्ट् थिङ्क् दट् केन् बी अ प्रापर् आब्जेक्ट्
Lalita,
right. So it will not work out like that.
Why Bhagini? I mean, suppose I actually want to ask a question, to whom did you write to?
To whom? So the whom means it becomes like that Chaturthi. Okay, so if we look at the Vibhakti Vallari, okay? Vibhakti Vallari is the standard for Vibhaktis, right? So Atra Pashyamaha. What they say about Dvitiya Vibhakti. Karma Padam.
For whom, therefore, Chaturthi is very clear, Bhagini, no problem there. But I'm just trying to understand how we should remember this, that two is not allowed. You can't write to somebody, but you can only write for somebody.
Yeah. I'm looking for two, the rule here.
Two generally takes Dvitiya, Putra Gacchati, so who, where?
So,
Bhagini said, it has
why?
So, Atra Pashyatu Bhagini, Dvikarmaka Dhatu, okay? We will be going through this book next anyway. So Ramaha, so these are the dvikarmaka dhatu. Vadati, prichati, prarthayati, nayati. So likati is not a dvikarmaka dhatu. Udahanartham, balakaha vadati. किं वदति उत्तरं वदति कं वदति अध्यापकं वदति पृच्छति प्रश्नं पृच्छति अध्यापकं प्रश्नं पृच्छति प्रार्थयति देवं किमपि वरं प्राप्त प्रार्थयति नयति गृहं नयति वस्तु नयति परन्तु लिखति इति द्विकर्मकधातु नास्ति अस्तु अग्रे
So that means any word that is used in conjunction with these dhatus, only if there are these four dhatus, we can have dvitiya, otherwise we can never have dvitiya. Is it beginning?
For example, I mean, we cannot have a second karma pada. But, you know, if udahanartha maham chashakam chamasam, that is okay. Chashakam chamasam cha. Svikaromi. That is okay. So, atra, when I say vadati, it's not just vadati. It is like katayati, nivedayati. All these mean vadati.
Okay.
Uktavan is also vadati. Like that. Same thing. And the prichati, yachati is also okay. Prichati and Prarthayati are kind of similar. Nayati is okay, Anayati is okay.
So, Bhagini, which word have a more than one meaning that is a Dvikarma?
No. Dvikarmaka dhatu means one dhatu can have two different karma padam, not the same category, like chamasaha, chashakaha, anayami, not like that. Udaharnatam, aham chamasam apanataha griham anayami. So,
anayami.
So, anayami is like nayami.
Nayami.
Category. So it falls under this category. Bhavati kim nayati aham vastu nayami.
Nayami. Right.
Vastu nayami. And then kutra nayami, that is also the karma padam. So I have two different karma padam. Griham is one karma padam and vastu is another karma padam. So that is a dvi karmaka dhatu.
Oh.
So if you look at this example, Ramaha adhyapakam prashnam prichati. Prichati is the kriyapadam. Dhatu. Okay. Ramaha kim prichati? Prashnam prichati. Ramaha prashnam kam prichati?
Adhyapakam
prichati. So this is a dvikarmaka dhatu. It has two different categories of karma padam.
Karma padam. Astu.
So in this category, this is not there. Likati is not there.
Right.
For example, chipati, to throw. Okay. I throw a stone in the river. It is not a dvikarmaka dhatu. Aham shilakandam chipami. So I cannot say nadim chipami.
Right.
So because this is the rule, it makes sense.
Bhagini, if we want to say in the river, then we have to use saptami, right?
Saptami,
Nadyam.
Chipami. Nadyam chipami. Why? Because of this rule. Parantu, the dvitiya makes so much sense. Nadin chipami. Why not? Because of this rule.
Astu bhagini.
Astu.
Agatam.
Uttama prashna bhagini. Astu. Anya kopi asti va? Nasti chet and gopika bhagini. Punaha.
आं भगिनि यस्मिन् गृहे किं भगिनि
अन्वना वदतु
यस्मिन् गृहे अतिथिसत्कारः प्रचलति तस्मिन् देवाः निवसन्ति.
अस्तु, can you explain why you got it for the sake of others also?
गृहं नपुंसकलिङ्गम् अस्ति, सप्तमी विभक्त्याम् अस्ति. सो यस्मिन्
गृहे, यस्मिन् गृहे अतिथिसत्कारः प्रचलति,
हास्पिटालिटि प्रचलति, तस्मिन् देवाः निवसन्ति.
तस्मिन् देवाः निवसन्ति.
आम्,
अवगच्छन्ति वा सर्वे?
सो भगिनि, यः ओन्लि यत् पुल्लिङ्गरूपं यूस् कर्तुं शक्यते.
अत्र नपुंसकलिङ्ग किमर्थम् इत्युक्ते गृहम् इति नपुंसकलिङ्गं खलु, परन्तु पुल्लिङ्गे नपुंसकलिङ्गे समानरूपमेव यस्मिन्.
बट् पुल्लिङ्गरूप इस् यद् नो,
यद् इस् द मूलरूपं,
मूलरूपं. सो आन् दिस् दिस् वी हेव् टु यूस् ओन्लि यद् रूपम्.
On the left side, yes, yad rupam. On the right side, tad rupam.
Tad rupam. Astu, astu, bhagini.
Bhagini, aham angila bhashayin madami, so that in which house hospitality is maintained, in that house,
the gods
live. God lives.
Devaha nivasanti. सम्यक् सम्यक्
अस्तु
अस्तु. अग्रे सागरि भगिनि.
आं भगिनि, गृहात् भवता पत्रिका आनीता. सो पञ्चमी, गृहात् अतः यस्मात् गृहस्य स्वामिनी नाम किम्? सो गृहस्य षष्टि अतः तस्य.
सम्यक्.
यस्मात् गृहात् भवता पत्रिका आनीता तस्य गृहस्य स्वामिनिः नाम किम्? फ्रोम् वेर् यु गोट् द मेगज़ीन्, वाट् इस् द नेम् आफ् द ओनर्?
ओनर् स्वामिनः, स्वामिन् इति मूलरूपं, स्वामिनः षष्टि, स्वामिनः नाम किम्? कुत्र ध्वनिः अस्ति? अस्तु, न जानामि. अस्तु, अग्रे सन्ध्या भगिनि.
डेश् सख्यै भवत्याः ह्यः लेखनी न दत्ता, डेश् अद्य वा ददातु. सख्यै इति चतुर्थी भगिनि.
आं सम्यक्.
सो इट् वुड् बि यस्यै भवत्याः ह्यः लेखनी न दत्ता, तस्यै अद्य वा ददातु.
सम्यक् सम्यक्. यस्यै सख्यै भवत्याः
ह्यः लेखनी न दत्ता.
Actually, it should be bhavatya, not bhavatyah.
The friend to whom you did not give the pen yesterday, today you give it to her.
Adyava dadat. At least now, like, Adyava dadat. Very nice.
Okay.
Beautiful way they wrote.
Atra sa ta pratyaya bhagini?
Kutra datta. No, no. Datta ta ta pratyaya. Etat karmani prayoga.
Okay.
भवत्या
कर्मणि प्रयोगाः सन्ति सर्वाः प्रयोगाः
कर्मणि प्रयोगाः सम्यक् अस्तु अग्रे सर्वे अवगच्छन्ति वा किमर्थं चतुर्थीविभक्ति किमर्थं स्त्रीलिङ्ग इति आम् इति मन्ये नो चेत् पृच्छन्तु चर्चां कुर्मः वि विल् डिस्कस्
सखी स्त्रीलिङ्ग
सम्यक् वदतु भगिनि वदतु सखी स्त्रीलिङ्ग अतः
सख्यै चतुर्थी विभक्ति एकवचनं स्त्रीलिङ्ग या शब्दः चतुर्थी एकवचनं बुद्धि यस्यै यस्यै सख्यै भवत्या ह्यः लेखनी न दत्ता तस्यै अद्य वा ददातु
सम्यक् भगिनि धन्यवादः अग्रे सविता भगिनि
आं भगिनि डैश् बालिकायाः माता विवेकिनी डैश् प्रगति निश्चिता एव बालिकायाः बालिका बालिके बालिकायाः बालिकां बालिके बालिकायाः बहुवचनं विसन्ति भगिनि प्रथम द्वितीय बहुवचनं
न भगिनि सर्वम् अत्र एकवचनं वचनमेव बालिकायाः नाम
बालिकायाः नाम
बालिकायाः माता विवेकिनी बालिका बालिकायाः सीता सीतायाः पतिः रामः
बालिका ओके ओके
सम्यक् सो अतः स्त्रीलिङ्गषष्टी एकवचनं या शब्दः खलु स्त्रीलिङ्ग अस्ति चेत् या शब्दस्य षष्टि एकवचनं कथं भवति
यस्याः
सम्यक् भगिनि यस्याः बालिका
यस्याः बालिकायाः माता विवेकिनी तस्याः प्रगतिः निश्चिता एव
तस्याः प्रगतिः निश्चिता
एव
सम्यक् तस्याः प्रगतिः
निश्चिता एव
सम्यक् बालिकायाः स्त्रीलिङ्गषष्टि एकवचनं या शब्दस्य स्त्रीलिङ्गषष्टि एकवचनं यस्याः अत्रापि तथा एव भवति किमर्थमिति इत्युक्ते प्रगतिः तस्याः प्रगतिः निश्चिता
एव
सम्यक् अस्तु ज्योति भगिनि अग्रे
आं भगिनि भवान् रिक्तस्थानं जनं पश्यति रिक्तस्थानं धनं मां प्रार्थयतु भवान् केन सह
अत्र अपि मुद्रणदोषः अस्ति माम् इति न मा एव
मा प्रार्थयतु
इत्युक्ते डोण्ट् आस्क्
ओके भवान् किम्
सो इट् केनाट् बि किं बट्
भवान् क्या भगिनि
नो यु चेञ्ज् इट् टु या भगिनि द किम् इस् करेक्ट् बट् देन् यु चेञ्ज् इट् टु या
ओके भवान्
सो अत्र जनम् इस् पुल्लिङ्गपदं
भगिनि पुल्लिङ्गपदं भवान् ऐ डोण्ट् अण्डर्स्टाण्ड् भगिनि
ओके सो द क्वश्चन् सो द अर्थ आफ् द सेण्टेन्स् इस् हूएवर् यु सी भवान् हूएवर् यु सी डोण्ट् आस्क् फार् मनी
ओके भवान् भवान् के
न न इन् सक यु यूस्
य
सो अत्र जनम् इस् द्वितीय एकवचनम्
एकवचनं द्वितीय एकवचनं
पुल्लिङ्ग प्रथम विभक्ति इस् यः
भवान् यः जनं पश्यति
यः इस् प्रथमा विभक्ति द्वितीया
यः या यः यौ
सो इन् इस् स्त्रीलिङ्ग
स्त्रीलिङ्ग
पुल्लिङ्ग
याम् इस् स्त्री याम् इस् स्त्रीलिङ्ग
याम् इस् स्त्रीलिङ्ग सो द ह्रस्व य विल् बि पुल्लिङ्ग
यः
सो लैक् ताम् इस् स्त्रीलिङ्ग तम् इस् पुल्लिङ्ग
पुल्लिङ्ग यम् भवान् यं जनं पश्यति रिक्तस्थानं देर् आर् टु रैट् भगिनि
सो यु केन् से यं यं जनं पश्यति
ओके भवान् यं यं जनं पश्यति तं धनं
मा प्रार्थयतु सो हूएवर् इस् यू डोण्ट् कीप् आन् आस्किङ्ग् फार् मनी लैक्
ओके
उत्तमवाक्यं खलु
आं भगिनि आं भगिनि धन्यवादः भगिनि
धन्यवादः
तमिळ् भाषायां वयं वदामः
एल्लाटिं केकात लैक् दट् सम्यक् अस्तु सो अग्रे बहु सुलभः भवति अग्रिम अभ्यासः बट् दिस् वास् अ वेरि गुड् एक्ससैस् खलु बहु उत्तम अभ्यासः अस्तु अग्रिम अभ्यासः रिक्तस्थानानि So if we look at the shabda, let's see.
It's, I think, high time we memorize those tables.
Yeah.
I think, Yethiki Bhagini, you remember your tables very well.
Who, me?
Yeah.
Oh my God.
No, too. I struggle to remember.
I try to see Atra Astiva iti, Atra Nasti. So I had another table, I couldn't find it today, so...
Bhagini, in the phone it is there, Yat Pullinga Rupa. That's why I
Oh, evam. Yeah. Oh. Kutra, let me see.
In the mycoaching.in.
Oh, mycoaching.in. Oh, I see.
Dehavani Sanskrit, all those things. Yat the Pullinga Rupa.
Okay, what was the link? Can you say it again?
Mycoaching.in. In India, I think.
Oh, I see.
That is a very good website. You got it?
Yeah, I got it, but I'm looking for the...
Yad Pullinga Rupa.
I see. Okay. Okay, I can't find it now. We'll do it later. But yeah, Bhagini, I was looking for it quietly. I couldn't find it. I showed the table the last time, Kalo. Gatavarge aham darshitavati. इदानीं नास्ति, एकवारं पश्यामि, एकनिमिषम्.
भगिनी तत् कोष्टकं कृपया प्रेषयतु.
आमां निश्चयेन निश्चयेन, लेट् मी फैण्ड् इट्, अस्ति चेत् प्रेषयामि.
यु केन् फैण्ड् इन् अ फोन् टु
आम्
ऐफोन् मै कोचिङ्ग् डाट् इन् ऐ थिङ्क् इन् इस् अ इण्डिया.
केन् यु जस्ट् सेण्ड् द लिङ्क् भगिनी, इस् ईज़ियर्.
यस् भगिनि, ऐ केन् सेण्ड् इट् टु.
Please put it in the group.
Yeah, exactly.
Yeah, yeah, yeah.
Bhagini, excuse me. Can you tell us which is the book we have to follow next so that we can order it now and be ready for the class when it is started?
Uttamam Mahodaya. So I'll just share something with you. Okay,
yeah,
just
please. So that we can order it, because it takes some time to get the book.
Radhikan Bhagini, you speak so fluently. How many years of effort has it taken you to get here?
A long time, Bhagini. It's not easy. I can say it very clearly. It's not easy.
Amazing, amazing. The fluency with which you speak is just so amazing, Bhagini.
Bhagini, I send it to you. My
coaching that in. Oh, evam va, astha.
Your Amba is also very fluent in Sanskrit, isn't it?
Okay, declensions. Okay, let me open this. If you, this is what I opened the last time, I think.
Yes, Bhagini. I'm going to copy that.
So I'll send this to you. Yeah, so this is what we need to do, this exercise. Yaha, yam, yena, yasmai, yasmat, yasya, yasmin.
Yeah, ya, yad, asti, there.
Ya, yam, yaya, yasyai, yasyaha, yasyaha, yasyam. Yat, yat, yena, yasmai, yasmat, yasya, yasmin. Okay, so I will send it to you right away before I forget.
Bhagini, you got it?
I got it.
No, my coaching in Sanskrit, they have all those things.
Oh, evam va.
www.mycoaching.in.
Okay, astu. अस्तु, इदानीम् अग्रे गच्छामः. धन्यवादः भगिनि, धन्यवादः.
यू वेल्कम् भगिनि.
अस्तु, सो अत्र अग्रिम अभ्यासः, रिक्तस्थानानि यथा तथा अथवा यत्र तत्र इत्येतेन वा पूरयत. उदाहरणं, भवतः गृहं कुत्र अस्ति? यत्र नारिकेलवृक्षः अस्ति तत्र एव मम गृहम् अस्ति. कुत्र? अस्तु, कस्य क्रमः? हू सेड् इट् लास्ट्? ज्योति भगिनी वा सविता भगिनी वा?
ज्योति
भगिनी. ज्योति भगिनी, अस्तु. केतकी भगिनी अग्रे. अम्बा, मम लेखनी कुत्र?
अम्ब, मम लेखनी कुत्र? यत्र पुस्तकादीनि सन्ति तत्र पश्य भो.
तत्र पश्य भोः.
भोः,
यस्, सम्यक्. अम्ब,
नौ अण्डर्स्टाण्ड् यत् फस्ट् इस् अ यत् रूपम् एण्ड् देन्
सम्यक्. सर्वत्र तथा एव खलु, यदि तर्हि यदा तदा यत्र तत्र यथा तथा यद्यपि तथापि.
यस् भगिनि.
सम्यक्, अस्तु. अम्ब अस्ति वा? नास्ति इति मन्ये. अस्तु, शारदा भगिनी.
मया उक्तं कार्यं भवान् कृतवान् किम्? अहं तु कृतवान्, किन्तु यथा भवान् उक्तवान् तथा कर्तुम् अहं न शक्तवान्.
बहु सुलभः खलु? अस्तु अग्रे उमाकृष्णन् भगिनि.
कार्यं कथं प्रचलति? यथा अपेक्षा तथा तथैव प्रचलति.
अत्रापि मुद्रणदोषः अस्ति. अत्र केवलम् एव अपेक्षया तथा एव प्रचलति. तथा एव प्रचलति इति अस्ति. अस्तु,
धन्यवादः.
उमाकृष्णन् भगिनी, नास्ति वा? अस्तु, परमेश्वर महोदय.
भगिनि, मम टिप्पणी पुस्तकं कुत्र? भवान्
भगिनि, ऐ थॉट ही आस्किंग यू.
भवान् यत्र स्थापितवान् तत्र एव अस्ति, पश्यतु.
तत्र एव अस्ति, पश्यतु. सम्यक् सम्यक्. गोपिका भगिनी.
आं भगिनि, कीटनिवारकचूर्णं कुत्र स्थापितं भवता? यत्र पिपीलिकाः आसन् तत्र सर्वत्र स्थापितम्.
सम्यक्.
सारी भगिनि, कीटनिवारकचूर्णं.
सम्यक्. सो अत्र कर्मणि प्रयोगः, कर्मणि प्रयोग यत्र भवता इति अस्ति, तत्र कर्मणि प्रयोगः च प्रत्यय आगच्छति.
बिकास् आफ् द चूर्णं स्थापितं.
चूर्णं स्थापितं. सम्यक्. भवता चूर्णं स्थापितं. कर्तरि प्रयोगे कथं भवति?
भवान्.
सम्यक्. भवान्
कीटनिवारकचूर्णं कुत्र स्थापितवान्?
स्थापितवान्.
ओके. कर्मणि इस् आल्वेस् इन् पास्ट् टेन्स्. सर्वदा न, अत्र
अत्र अत्र
अत्र
अत्र. सागरि भगिनि,
कथम् अस्ति एतस्य अभिनयः? देवनन्दनः यथा अभिनयति तथा उत्तमः नास्ति.
तथा उत्तमः नास्ति. यथा कथम् अस्ति चेत् यथा तथा भवति. कुत्र अस्ति चेत् यत्र तत्र. अस्तु, सम्यक्. सन्ध्या भगिनि.
भगिनि, यदा तदा इस् आल्सो देर्
रैट्? न, यदा तदा इस् नाट् देर्.
I mean, they are not valid words, is it, Magali? Yada?
I don't understand your question, Magali. So, are you saying, is that one of the choices given?
In general, we can use that combination also.
Nishchayana, nishchayana.
And if I may ask, Bhagini, what is the difference between yatha and yada? Yada is when, right?
When, yeah. Yada samayam suchayati. Yatha katham iti suchayati.
Where, okay, place.
Yeah, no, no. Yatra, is, it shows where.
Where, okay.
Yada is when. Okay, bhavati yatra kutra agachate. यत्र कार्यक्रमः अस्ति तत्र आगच्छामि भवती यदा भवती कदा आगच्छति यदा कार्यक्रमः भवति तदा आगच्छामि भवती कथम् आगच्छति यथा मम पुत्रः आगच्छति तथा अहमपि आगच्छामि अस्तु अवगच्छति खलु अस्तु
सर्वं सम्यक् कृतवान् खलु भवान् यथा भवता उक्तं तथा एव कृतं
तथा एव कृतम् अत्रापि कर्मणि प्रयोगः भवता उक्तम् सो इन् इन् स्टोरीस् यु सी दिस् अ लाट् एक्चुलि तथा एव कृतम् अस्तु अग्रे सविता भगिनि
आं भगिनि अम्ब एतत् कुत्र स्थापयामि तत्र मा स्थापय रे डाश् जलं नास्ति डाश् एव स्थापय यत्र जलं नास्ति तत्र एव स्थापय
सम्यक् यत्र तत्र सम्यक् ज्योति भगिनि
आं भगिनि अम्ब अहं क्रीडितुं गच्छामि किं यथा इच्छा अस्ति तथा करोतु भवान्
सम्यक् यथा तथा सम्यक् केतकि भगिनि
आं भगिनि विच् वन् नैन्त् वन् रैट्
दशमं
दशमं महान् कोलाहलः भोः अत्र अत्र जनाः भवन्ति तत्र कोलाहलः सहजः
यत्र जनाः भवन्ति तत्र कोलाहलः सहजः
दिस् इस् ईज़ी भगिनि
यत्र तत्र किमर्थम् इत्युक्ते अत्र विभक्तिविषये चिन्तनं नास्ति लिङ्गविषये चिन्तनं नास्ति केवलं यत्र तत्र वा यथा तथा वा इति अस्तु अम्ब अस्ति वा
करपत्राणि कुत्र वितरणीयानि यत्र जनसञ्चारः अधिकः तत्र
सम्यक् कुत्र यत्र तत्र सम्यक् शारदा भगिनी अग्रे
कथम् अस्ति मम शाटिका यथा भवति सुन्दरी तथा भवत्याः शाटिका अपि
सम्यक् उत्तम उत्तमवाक्यं खलु सुन्दरं वाक्यम् अस्तु अस्तु अग्रे अस्ति यद्यपि तथापि यावत् तावत् यदा तदा सो अत्र यद्यपि तथापि इति किञ्चित् विपरीतविषये वयं वदामः उदाहरणार्थं भोजनं असाधारणतया वयं किं वदामः भोजनम् अस्ति चेत् अहं खादामि यदि भोजनम् अस्ति तर्हि अहं खादामि इति एकनिमिषम् अस्तु यदि भोजनम् अस्ति तर्हि अहं खादामि परन्तु अत्र यद्यपि उपयुज्य यद्यपि भोजनम् अस्ति तथापि अहं न खादामि इति विपरीतविषये वदामः चेत् अत्र यद्यपि तथापि उपयोगं कर्तुं शक्नुमः यावत् तावत् इति कियत् इति पदस्य प्रश्नस्य उत्तरं भवति. कियत् जलम् अस्ति तत्र, यावत् सरोवरे अस्ति तावत् अत्र नास्ति इति वदामः. यदा तदा समयं सूचयति. यदा समयं न कण्डिशन् इति वदामः खलु, तदा उदाहरणार्थं यदा कार्यक्रमः भवति तदा अहं तत्र आगच्छामि. यदा तदा समयं सूचयति, समयस्य कण्डिशन् तत्र अस्ति.
भगिनी यद्यपि तथापि पुनः एकवारं विवृणोतु कृपया.
सो अहं ऐ मीन् अहं वदामि यदि भोजनम् अस्ति अथवा यदि बुभुक्षा अस्ति तर्हि अहं खादामि. यदि बुभुक्षा अस्ति तर्हि अहं खादामि इत्युक्ते साधारणविषयः, सर्वे अङ्गीकुर्वन्ति आम् आम् तत् सत्यम् अहमपि तथा एव करोमि इति. परन्तु यद्यपि तथापि किञ्चित् विपरीतविषयः, यद्यपि मम बुभुक्षा अस्ति तथापि अहं न खादामि इत्युक्ते अन्यकारणम् अस्ति इति. यद्यपि मम समीपे धनम् अस्ति तथापि अहं दानं न करोमि. यद्यपि आपणः अस्ति तथापि अहं तत्र गत्वा न क्रीणामि इति. अवगच्छति वा?
आं भगिनि, इदानीम् अवगतम्.
अन्य प्रश्नः वा?
न.
This is like even if I have, I won't do like that.
Even then. Yeah.
Although.
Yeah, you can say although. Although, even then.
And what is the equivalent for yavat tavat in English?
Yavat tavat, that much, as much, like that. As much, that much. As much as she talks, that much I cannot talk. Yavat sa vadati, thavat anya kopi na vadati.
Thank
you. Yeah. Yavat sa karati, thavat aham na khadami. Asta.
Yavat. यावत् अहं मूढम् अस्मि तावत् अन्य कोऽपि नास्ति.
भवान् भगिनि अस्तु. अग्रे हू डिड् लास्ट्? शारदा भगिनि खलु?
आं भगिनि.
अस्तु अस्तु. उमाकृष्णन् भगिनि पठति वा?
आं भगिनि.
मित्र
मित्र मित्र प्रचारकत्वं मास्तु इति गृहसदस्याः न उक्तवन्तः किम्? Should I go to the next
sentence?
कृष्णः यद्यपि ते तथा उक्तवन्तः तथापि अहं तत् न परिगणितवान्.
सो अत्र मित्र इति सम्बोधन, प्रचारकत्वं. सो अत्र पूर्वस्मिन् पाठे आसीत् खलु श्यामः, कृष्णः, शारदा. कृष्णः अन्तिमवाक्ये वदति अहं प्रचारकः एव, सङ्घस्य प्रचारकं कर्तुमेव अहम् आगच्छामि इति किमपि उक्तवान् सः. सो अत्र अनुवर्तते अत्र. सो इट् इस् कण्टिन्यूयिङ्ग् हियर्. मित्र प्रचारकत्वं मास्तु इति गृहसदस्याः न उक्तवन्तः किं? गृहसदस्याः इत्युक्ते ये गृहे सन्ति ते. गृहसदस्याः न उक्तवन्तः किम् इति कृष्णः वदति. यद्यपि ते तथा उक्तवन्तः इत्युक्ते ईवन् दो दे हेड् सेड् दट् तथापि, ईवन् देन्, आल् दो, although even then, like that. Aham tat na pariganitavan. Gananam means I take into account, right? Gananam karomi, I count it. Na pariganitavan. I am not taking that into consideration. I am not counting that.
Bhagini, pracharakatvam ityukte ke?
Pracharakatva means, okay, so when we spread something, right? So the spreading.
Okay.
Bhagini, that tvam, tvam pratyaya.
Yeah, it's like a kadanam, kadanam. So it is like kadanam, kadati kadanam, pracharayati pracharakatvam. Pracharanam is there, and then pracharakatvam is also the pracharakatvam.
So that is a tva, katva prayog. Or tva prayoga.
Probably the tva prayoga.
Okay. And uptavantaha.
Kim bhagini?
What's the pratyaya name, bhagini?
Idanim na smarami. I'm trying to think, bhagini. Idanim na smarami. Agre vadami. Agre vadami. Just remind me in the group, okay? Because I say I'll tell you later, but then I forget. Astu. Agre. Parameshwar Mahodaya.
Yes, madam. Shya, which one is?
Idani.
Shya, idanim kadam asti grihasya sthiti krishnaha yadyadi purvam tesham asandoshaha आसीत् तदापि इदानीं सर्वे सन्तुष्टाः सन्ति.
इदानीं सन्तुष्टाः सन्ति. सो अत्र इदानीं कथम् अस्ति गृहस्य स्थितिः. स्थितिः इत्युक्ते कण्डिशन्, स्टेट् इति. यद्यपि पूर्वं तेषाम् असन्तोषः आसीत्. लुक् अट् दट् प्रयोगः. तस्य सन्तोषः. तस्य तयोः तेषाम् असन्तोषः आसीत्. तथापि इदानीं सर्वे सन्तुष्टाः सन्ति. बिफोर् दे वर् नाट् हेपि. किमर्थं? प्रचारकविषये एव. प्रचारकविषये ते असन्तुष्टाः आसीत्. अत्र असन्तुष्टाः आसीत्. दिस् इस् प्रथमा विभक्तिरूपम् असन्तुष्टः. बट् हियर् इट् इस् सन्तोषः. देन् इट् बिकम्स् षष्ठी विभक्ति. मम सन्तोषः नास्ति. सपोसिङ्ग् ऐ से मम दट् इस् षष्ठी. ऐ एम् सेयिङ्ग् इट् यूसिङ्ग् षष्ठी विभक्ति. मम सन्तोषः नास्ति. ऐ एम् नाट् हेपि. But I say, Aham Santushta Asmi. Okay, so that is the usage here. Mama Santoshah Nasti, Aham Santushta Asmi. Iti. Okay, Samayaha Abhavat, Prashnaha Astiva, Itopi Pariyanta, up to now?
No, Bhagini.
Tarhi, समापयामः शान्तिमन्त्रम् उक्त्वा. ॐ सर्वे भवन्तु
सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु,
मां कश्चित्
दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.
हरिः
हरिः. ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः भगिनी.
धन्यवादः भगिनी. धन्यवादः.